तब महादावाग पापनं कैरव चंद्र का वितरण विद्यावधूजीवन कैरवा चंद्र का वितरण विद्या कैरव चंद्रिका वितरणम् विद्यावधूजीवनम् आनन्दाम्बुदिवर्धनम् प्रतिपदम् पूर्णामृतास्वादनम् परं विजयति श्रीकृष्णसङ्कीर्तनम् आनन्दा प्रतिपदम् पूर्णामृतास्वादनम् सर्वात्मतपणम् परम् विजयते श्रीकृष्णसङ्कीर्तनम् परं विजयते श्रीकृष्णसङ्कीर्तनम् एतदर्पणमार्जनम् भव महादावाग्निर्वापनम् त्रयकैरव चन्द्रकावितरणम् विद्यावधूजीवनम् आनन्दाम्बुदिवर्धनम् प्रतिपदम् कार्य बहुधा निज सर्वशक्ति तत्रापिता नियमित मरणे न काल एतादृशी तव कृपा भगवन् ममापि राम नाम कार्य बहुधा निज सर्वशक्ति तत्रार्पितान्यमित स्मरणेन काले एतादृशी तव कृपा भगवन् ममापि भगवन् ममापि एतदर्पणमार्जनम् भव महादवानिपापनम् प्रयत्कैरवचन्द्रपाभितरणम् विद्याभू आनन्दामृतवर्धनम् प्रतिप्रदम् पूर्णामृतासादनम् परम् विजयते समीचीन करो करोरपि सहिष्णुना अमानिनं मानवेन कीर्तनीयं सदा हरि ऐनन्दतनयाम् धनंग जनंग सुंदरी कवि काम जगदी सकाम धनंग न जनंग न सुंदरी कविता न मा जगदी सकामी मम जन्मनि जन्मनि शरे भवता मम जन्मनि जन्मनि शरे भवतात् भक्ति एतदर्पणमार्जनम् भव महादाव निपापनं विद्यावजीवनम् आनन्दामदीवर्धनम् प्रतिपदम् पूर्णामिकास्वादनम् सर्वात्मसकनम् परम् विजयते श्रीकृष्णसङ्गीतनम् एतदर्पणमार्जनम् ऐनन्नतनया पतितं किङ्करं मां भीषमे भवामृतौ ऐनन्नतनया पतितं किङ्करं मां भीषमे भवामृधौ कृपया तव पादपङ्कजस्थितः पतितं किङ्करं मां भीषमे भवामृधौ कृपया तव पादपङ्कजस्थितौ सदितम् एतदर्पणमार्जनम् भव महादावाग्निपापनम् यत्कैरवतं काभितरणम् एतदर्पणमार्जनम् नयनं कलदक्षधारया padananda gadaidira kulakai nikitam bapu vada ಧಾರಯ ಬದನಂಗದೈಗಿರ ಕುಲಕೈ ನಿಖಿತಂ ಬಪು ಚಕ್ಷುಷಾ ಪ್ರಾವಿಷಾಯಿತ ಸುನ್ನಾಯಿತ ಜಗತ್ಸರ್ವ ಏತದರ್ಪಣ ಮಾಡಿ.